पञ्चात्मकं देहमिदं तव हित नैवास्य त्वं रोदिषिकस्य हेतो न वा भवान् रोदिति वै स्वजन्मा शब्दोऽयमासाद्यमहीशसूनु विकल्प्यमाना विविधा गुणास्ते गुणाश्च भौता सकलेन्द्रियेषु तातेति किञ्चित् तनयेति किञ्चित् तं वेति किञ्चित् दयितेति किञ्चित् ममेति किञ्चिन्न ममेति किञ्चित् त्वं भूतसङ्घं बहुमालपेथा शमाय भोगान् सुखाय जानाति विमूढचेता तान्येव दुःखानि पुनः सुखानि जानात्य विद्वान् सुविमूढचेता कल्पनयाधुनैव पञ्चात्मकं देहमिदं तव हित नैवास्य त्वं रोदिषिकस्य हेतो नैवास्य त्वं रोदिषिकस्य हेतो नैवास्य त्वं रोदिषिकस्य हेतो